एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। उपराष्ट्रपति पदाय अद्य निर्वाचनम् सम्पद्यमानम् वर्तते। एतदर्थम् नयाँ बानेश्वर स्थितस्य संघीय संसद भवनस्य लोच्यसभाकक्षे मतदानकेन्द्रद्वयस्य व्यवस्था विहिता अस्ति। पूर्वाह्नस्य दशवादनात् अपराह्नस्य त्रिवादनम् यावत् मतदानस्य व्यवस्था विहितास्तीति सहायक निर्वाचनाधिकृतः अमृता कुमारी शर्मा अवोचत्। मतदान सम्पन्नतायाः अनुपदमेव मतगणना प्रारभणाय पूर्वकार्यम् विहितमस्तीति हेतोः अद्य सायम् षड्वादनम् यावत् परिणामः सार्वजनिको भवतीति च असौ अगदत्। निर्वाचनायोगेन अद्य सम्पद्यमानाय उपराष्ट्रपतेर निर्वाचनाय प्रचार प्रसारयोः निषेधनावधौ राजनीतिक दलस्य उपवेशेन प्रत्याशिने मतदानात्मकम् अप्रदानात्मकम् वा निर्णयम् न कर्तुम् न कारयितुम् च ध्यानाकर्षणम् कारितम् वर्तते। प्रत्याशिनः सम्बन्धे कतिपय राजनीतिक दलानाम् उपवेशस्य तत्सम्बद्धायाः सार्वजनिका विवेक्तेः प्रकाशनस्य च सन्दर्भे ह्यः आयोगेन विज्ञप्तिम् प्रकाश्य ध्यानाकर्षणमिदम् कारितम् वर्तते। आयोगेन निर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये पारदर्शिनी भयमुक्ते च वातावरणे सम्पादयितुम् मतदान दिवसस्य घण्टानाम् अष्टचत्वारिंशतः पूर्वकालतः मतदान दिने मतदान केन्द्रस्य अपि दानम् यावत् प्रचार प्रसारयोः निषेधनस्य अवधि क्रियान्वितो स्थिति स्मारितम् वर्तते। आयोगस्य प्रवक्त्रा शालिग्राम शर्मा पौडेलेन प्रकाशितायम् विज्ञप्तौ एतस्मिन् अवधौ निर्वाचनस्य प्रचार प्रसाराभ्यम् स कथंविधाः अपि उपवेश विमर्शनान्तर क्रियासभा आयोजयितुम् न शक्यन्ते इत्युल्लिखितम् अस्ति। अद्य सम्पद्यमानस्य उपराष्ट्रपतेर्निर्वाचनस्य विषये निर्णेतुम् राष्ट्रिय स्वतन्त्र दलेन दलस्य पदाधिकारिणाम् संसदीय दलस्य च संयुक्तोपवेशः आकारितो वर्तते। अद्य पूर्वाह्नस्य सार्धैकादशवादने वसुन्धरास्थिते दल कार्यालये उपविश्यमानेन उपवेशेन सामयिक परिस्थितेर्विषये निर्णयो विधीयते इति दलस्य सहमहामन्त्री कविन्द्र बुर्लाकोटी असूचयत। एतस्य अनुसारेण उपवेशेन उपराष्ट्रपतेर्निर्वाचने दलेन कस्मै प्रत्याशिने मतदानं विधातव्यमिति विषये निर्णीयते। प्रधानमन्त्री पुष्पकमलदाल प्रचण्डः वैदेशिक वृत्त्युपार्जनाय विदेशम् जिगमिषुभ्यो युवभ्य अनावश्यकम् दुःखम् न दातुम् निर्दिशति। ह्यो गृहमन्त्रालयस्य अन्तर्गतायाः विकास समस्या समाधान समितेः उपवेशम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः पारपत्र निर्माणस्य स्वास्थ्य परीक्षणस्य अभिमुखीकरण प्रशिक्षण ग्रहणस्य अध्यागमन प्रक्रियायाश्च क्रमे युवभिः षोडभ्यम् दुःखम् गभीरम् अस्ति इति अभासत। असौ विधेः प्रक्रियायाश्चनुसारेण सम्पादनीयम् किमपि कार्यम् नावरुद्धुम् अनावश्यक विलम्बनस्य अनुगमनम् कृत्वा तन्नियन्तुम् च निरदिशत। राष्ट्रियसभाया सबल विकास सुशासन समित्या सुशासनस्य सबल विकासस्य सन्तुलित विकासस्य च प्रत्याभूतेः उद्भावनत्वेन व्यवस्था वर्तते नवेति परीक्षणं विधाय एव विधेयक पञ्जीकरण प्रक्रियायाः अग्रे वर्धन कारिणीं व्यवस्थां विधातुं संसद सचिवालयः निर्दिष्टो वर्तते। समितेः ह्य सिंहप्रासादे उपविष्टेन उपवेशेन संघीय संसदि प्रस्तुष्यमाणस्य विधेयकस्य प्रावधाने नवीनस्य संशोधकस्य च विधेयकस्य प्रारूप निर्माणावधौ सुशासन सबल सन्तुलित विकासस्य सत्यापन सूच्याः माध्यमेन परीक्षणस्य व्यवस्थां विधातुम् सर्वकाराय निर्देशनम् दातुमपि निर्णीतम् वर्तते। जनता समाजवादी दल नेपालेन मंजु अंसारी प्रतिनिधि सभाया सदस्यस्य कृते परामृष्टास्ति। ह्य उपविष्टेन दलस्य केन्द्रीय कार्यकारिणी सभेन सप्तरी जनपदस्य अंसारी इत्यमुम् समानुपातिक सांसदाय परामृष्टुम् निर्णीतमिति जसपा दलस्य प्रवक्ता मनीष सुमन अज्ञापयत्। जसपा दलस्य सांसदस्य शहनाज रहमान इत्यस्याः गत फाल्गुनस्य त्रयोदशे दिवसे हृदयाघातस्य कारणेन मृत्योः पश्चात् प्रतिनिधि सभायाः समानुपातिक पक्षस्य एकस्य सांसदस्य स्थानम् रिक्तम् आसीत्। सर्वकारेण हिन्दू धर्मस्य बृहत्तरानुसन्धानस्य उद्देश्येन श्री पशुपति हिन्दू विश्वविद्यालय स्थापयिष्यते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालय मन्त्रीस्तरीय निर्णय न हिन्दू धर्म अनुसन्धान उद्देश्य विश्वविद्यालय स्थाप्य मानव वर्तते। मन्त्रालय ह्य आयोजित पत्रकार सम्मेलन संस्कृत पर्यटन नागरिक उड्डयन मन्त्री सुदन किराती विश्वविद्यालय माध्यम आविश्व हिन्दू धर्म सम्बद्धान विज्ञान उत्पादन सांस्कृतिक कूटनीतिक विकास उद्देश्य विश्वविद्यालय अवधारणा अग्रेसारिता स्थिति अवोचत। सर्वकारेण जनसंचार क्षेत्रस्य समग्र सुधाराय नीतेः विधेः नियमनस्य च विषयेषु परामर्शनं प्रदातुं समितिः संघटिता अस्ति। संचार सूचना प्रविधि मन्त्रालयस्य मन्त्रीस्तरीय निर्णयस्य अनुसारेण नेपाल पत्रकार महासंघस्य पूर्वाध्यक्षस्य डा सुरेश आचार्यस्य संयोजकत्वे पञ्चसदस्यीय समिति संघटिता वर्तते। समितेः सदस्येषु महासंघस्य पूर्वाध्यक्षद्वयं गोविन्द आचार्यः डा महेन्द्र विष्टश्च वर्तमानाध्यक्ष विपुल पोखरेलः वरिष्ठ पत्रकार बबिता बस्नेत च वर्तन्ते। जनसंचार क्षेत्रं व्यवस्थितं मर्यादितं प्रतिस्पर्धी च विधातुं विधातव्यानां कार्याणां अन्य देशानाम अनुभवस्यापि आधारेण जनसंचार क्षेत्रस्य सम्बन्धे विधातव्यायाः नीतिगतायाः विधिगतायाश्च व्यवस्थायाः जनसंचार क्षेत्रस्य नियामकीय क्षमतायाः वृद्धेः उपायस्य च विषयेषु परामर्शनं प्रदातुं समित्यै दायित्वं प्रदत्तमस्ति। एवमेव संचार सूचना प्रविधि मन्त्रालय स्थितस्य जनसंचार सम्बद्ध नीतेः विदेश प्रारूपस्य परिमार्जनं कृत्वा समय सापेक्ष सम्पादनस्य विषये परामर्शानां प्राप्तेः पश्चात् तद्विषये सम्बद्ध पक्षैः विमर्शनम् अन्तरक्रियां च कृत्वा ततः प्राप्तानि परामर्शनानि समाविश्य जनसंचार विधेयकस्य अन्तिम प्रारूपं निर्मातुं च समित्यै दायित्वं प्रदत्तमस्ति। समिते कार्यस्य प्रारम्भणस्य त्रिंशतो दिनानाम् अभ्यन्तरे प्रतिवेदनस्य अर्पणत्वेन कार्यक्षेत्रं निर्धारितमस्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति विदेहे जटिल प्रक्रियायाः कारणेन जनतया सहजतया न्यायः प्राप्तो नास्ति। नेपाल ल क्याम्पस महाविद्यालय अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी संगठनेन ह्य काष्ठमण्डपे आयोजित कार्यक्रमे अध्यक्ष ओली अगदत नागरिकेभ्य सहजतया न्यायस्य प्राप्तये विदेहे जटिलता अपसारणीया। अध्यक्षः ओली कतिपय विदेहे प्रक्रियायाश्च कारणेन विकासस्य कार्येषु अवरोधः प्रापितोऽस्तीत्यतः विदेहे उपयोगितायै सहजतया क्रियान्वयनाय च बलं प्रादात्। अध्यक्षः ओली विश्वविद्यालयेषु शैक्षिकेतर क्रियाकलापां न कर्तुं च अन्वरुणत। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड नेपाल विश्व चषक चरम क्रिकेट प्रतिस्पर्धाया प्रचयन चरणं प्राप्तुं सफल सम्रेतोस्तीत्यत्र प्रसन्नतां व्यनक्ति। ह्य विश्व क्रिकेट क्रीडा परिषद क्रिकेट क्रीडाया विश्व चषक चरम प्रतिस्पर्धाया द्वितीय चरणस्य अन्तर्गतं त्रिभुवन विश्वविद्यालय स्थितायां क्रिकेट क्रीडा रंगशालायां सम्पन्नायां क्रीडायां यूएई देशोपरि डीएल पद्धत्याः माध्यमेन नवानां धावनांकानां अन्तरेण विजय प्राप्तेः पश्चात् नेपालः विश्व चषक क्रिकेट क्रीडा प्रतिस्पर्धायाः प्रचयन चरणं प्रविष्टोऽस्ति। क्रीडायाः समाप्तेः कतिपय समयस्य पश्चादेव ट्विटर सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्रिणा प्रचण्डेन प्रसन्नतायाः अभिव्यक्त्या सहैव क्रीडकेभ्यः वर्धापनं प्रदत्तं वर्तते। प्रधानमन्त्रिणा प्रचण्डेन विभिन्न चरणानां क्रीडासु उच्चकौशलं प्रदर्श्य नेपालस्य स्वाभिमानं गौरवं च उच्चैः संस्थापयितुं सफलः समृद्धः इति कृत्वा उच्च प्रशंसया नेपाली क्रिकेट क्रीडा समूहाय प्रशिक्षकाय नेपाल क्रिकेट क्रीडा परिषदे च वर्धापनं ज्ञापितं वर्तते। एवमेव सभामुखेन देवराज घिमिरे विधेन च विश्व क्रिकेट क्रीडा परिषदः पुरूष पक्षस्य विश्व चषक प्रतिस्पर्धायाः द्वितीय चरणस्य क्रिकेट क्रीडायाः विजेत्रे नेपाली क्रिकेट क्रीडा समूहाय वर्धापनं ज्ञापितं वर्तते। त्रिभुवनान्तर्राष्ट्रिय विमानस्थल अवैध रूपेण नियमानावस्थायां शताधिक नवसहस्रैः अमेरिकीय डलर मुद्राभिः पञ्च शताधिकोनत्रिंशत् सहस्रैः बंगलादेशीय टाका मुद्राभिश्च सह ह्य चीनदेशीयो नागरिकः निगृहीतो वर्तते। नेपाल प्रहरीण प्रवक्तो प्रहरी नायब महानिरीक्षकस्य पुषराज पोखरेलस्य अनुसारेण बंगलादेश वायुसेवाया उड्डयनेन काष्ठमण्डपात् बंगलादेशं गन्तुकाम चीनदेशीयो नागरिकः द्विपञ्चाशत् वर्षीय काई हुनान् अमेरिकीय डलर बंगलादेशीय टाका मुद्राविश विमानस्थलात् निगृहीतो वर्तते। इति समाचारः।